ततो मगधभूभृता चिरनिरोधसंक्लेशितं शताष्टकयुतायुतद्वितयं ईशा भूमिभृतां अनाथशरणायते कमपि पूरुषं प्राहिणोत् अयाचत सः मागधक्षपणमेव किं भूयसा इयासुरभिमागधं तदनु नारदोदीरितात् युधिष्ठिरमखोद्यमात् उभयकार्यपर्याकुलः विरुद्धजैनोध्वरात् उभयसिद्धिः इति उद्धवे शशंसुषि निजैः समं पुरमियेथ यौधिष्ठिरीम् अशेषदयितायुते त्वयि समागते धर्मजो विजित्य सहजैर्महीं भवदपाङ्ग संवर्धितैः श्रियं निरुपमां वहन् अहह भक्तदासायितं भवन्तम् अयिमागधे प्रहितवान् सभीमार्जुनं गिरिव्रजपुरं गताः तदनुदेवा यूयं त्रयः ययाच समरोत्सवं द्विजमिषेण तम्मागधम् अपूर्णसुकृतं त्वमुं पवनजेन संग्रामयन् निरीक्ष्य सह जिष्णुना त्वमपि राजयुद्ध्वा स्थितः अशान्तसमरोद्धतं विटपपाटनासंज्ञया निपात्यजरसस्सुतं पवनजेन निष्पाटितं विमुच्य नृपतीन्मुदा समनुगृह्य भक्तिं परां दिदेशिथ गतस्पृहानपि च धर्मगुप्त्यै भुवः प्रचक्रुषि युधिष्ठिरे तदनुराजसूयाध्वरं प्रसन्नभृतकीभवत् सकलराजकव्याकुलं त्वमपि अयि जगत्पते द्विजपदावनेजादिकं चकर्थ किमु कथ्यते नृपवरस्य भाग्योन्नतिः ततः सवनकर्मणि प्रवरम् अग्र्यपूजाविधिं विचार्य सहदेववागनुगतः सधर्मात्मजः व्यधत्त भवते मुदा सदसि विश्वभूतात्मने तदा ससुरमानुषं भुवनमेव तृप्तिं दधौ ततः सपदि चेदिपो मुनिनृपेषु तिष्ठत्सु अहो सभाजयति को जडः पशुपदुर्दुरूटं वटुम् इति त्वयि स दुर्वचो विततिं उद्वमन्नासनात् उदापतत् उदायुधः समपतन् अमुं पाण्डवाः निवार्य निजपक्षगान् अभिमुखस्य विद्वेषिणः त्वमेव जहृषे शिरो दनुजदारिणा स्वारिणा जनुस्त्रितयलब्धया सततचिन्तया शुद्धधीः त्वया स परम् एकतामधृत योगिनां दुर्लभां ततः समुहिते त्वया क्रतुवरे निरूढे जनः ययौ जयति धर्मजो जयति कृष्णः इत्यालपन् खलस्सतु सुयोधनः धुतमनाः सपत्नश्रिया मयार्पितसभामुखे स्थलजलभ्रमात् अभ्रमीत् तदा हसितमुत्थितं द्रुपदनन्दनाभीमयोः अपाङ्गकलया विभो किमपि तावत् उज्जृम्भयन् धराभरनिराकृतौ सपदि नाम बीजं वपन् जनार्दना मरुत्पुरीनिलया पाहि माम् आमयात् ॐ तत्सदिति श्रीमन्नारायणीये पञ्चाशीतितमं दशकं समाप्तं श्रीहरये नमः रमा रमण गोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।